एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन सह अन्तर्राष्ट्रिय विकासाय अमेरिका देशीय नियोगस्य प्रमुख सामन्था पावर ह्यो मेलवार्ताम् व्यदधात्। सिम्म प्रासादवर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालय सम्पन्ने मेलने अनयोर्मध्ये नेपाल अमेरिका देशयो सम्बन्धस्य सहयोगस्य च विविध विषयेष् वार्ताभिहितेति प्रधानमन्त्रिणो नैज सचिवालयो ज्ञापयति। एवमेव प्रधानमन्त्रिणा प्रचण्डेन सह गतदिने एव अन्तर्राष्ट्रिय सहकार्याय यूरोपीय संघस्य आयुक्त जुट्टा उर्पिलाइनेन मेलवार्ताम् अकरोत्। सिम्म प्रासादस्थे प्रधानमन्त्री मन्त्री परिषद कार्यालय सम्पन्ने मेलने अनयोर्मध्ये नेपाले संघेन विधीयमानानां विभिन्न कार्याणां विषय वार्ता सम्भूतेति सचिवालयोऽसौ सूचयति। संयुक्त राज्य अमेरिका देशस्य अन्तर्राष्ट्रिय विकास नियोगस्य प्रशासक सामन्था पावर कथयति लोकतन्त्रस्य रक्षायै समावेशिताय आर्थिक वृद्धेः सुनिश्चयनाय च संमित्रस्य रूपेण अमेरिका देशः सदैव तत्परो वर्तते। ह्य काष्ठमण्डपे आयोजितं पत्रकार सम्मेलनं सम्बोधयन्ती प्रशासकः पावर अवोचत् नेपाली जनतायाः आकांक्षां पूरयितुम् अमेरिका देशेन पञ्चसप्तत्या वर्षैः सहयोगो विधीयमानो वर्तते एवं आगामी दिनेष्वपि एवं विधाय सहयोगाय नैरन्तर्यं प्रदास्यते। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन अर्थमन्त्रिणा विष्णु पौडेलेन च सह विहितायाः मेलवार्तायाः क्रमे अमेरिका देशीय नियोगेन नेपालं 33-2000 ख्रीष्टवर्षं यावत् मध्यमाययुतस्य राष्ट्रस्य सूच्यां प्रापयितुं सहयोगस्य प्रतिबद्धता व्यक्त्यति प्रशासकः पावर अज्ञापयत। प्रशासकः पावर अगदत् नेपालस्य आयव्यय विवरण प्रक्रियां समावेशिनीं समतामूलिकां पारदर्शिनीं च विधातुम् आसन्न सप्ताब्जानि रूप्यकाणि नियोक्ष्यन्ते। प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य नेकपा एमाले दलाध्यक्षस्य च केपी शर्मा ओलीनश्च मध्ये उच्चस्तरीय राजनीतिक संयन्त्रस्य उपवेशम् आभातुं सहमतिर्दृतास्ति। प्रधानमन्त्रिणः प्रचण्डस्य उच्चस्तरीय राजनीतिक संयन्त्रस्य संयोजकस्य एमाले दलाध्यक्षस्य ओलीनश्च मध्ये ह्य बालकोटस्थाने सम्पन्ने मेलने अद्य राजनीतिक संयन्त्रस्य उपवेशस्य आह्वानस्य राष्ट्रपतेः प्रत्याशितायाश्च विषयेष् विमृष्टम् वर्तते। मेलनस्य पश्चात् संचारकर्मिभ्यः संक्षिप्त प्रतिक्रियां ददत् प्रधानमन्त्री प्रचण्डः राष्ट्रपतेः प्रत्याशितायाः सर्वकारस्य कार्याणां च विषयेष् विमृष्टुम् उच्चस्तरीय राजनीतिक संयन्त्रस्य उपवेशः अद्य उपविश्यमानोऽस्ति इति अज्ञापयत्। राष्ट्रपतेः निर्वाचनम् आगामिनः फाल्गुनमासस्य पञ्चविंशे दिवसे निर्धारितमस्ति। फाल्गुनस्य अष्टाविंशे दिवसे राष्ट्रपतेः विद्यादेवी भण्डारिणः पञ्चवर्षात्मक कार्यकालः समाप्तिम् एष्यति। सत्ता सहकारी दलानां मध्ये राष्ट्रपतेः प्रत्याशी क भवतीति विषये मतैक्यं नास्ति। एमाले दलेन राष्ट्रपतिः आत्मभिः प्राप्तव्यः इति दृढतया उक्तं सदपि प्रधानमन्त्रिणा प्रचण्डेन राष्ट्रिय सहमतौ राष्ट्रपतिः निर्वाचनीयः इति धारणा अभिव्यज्यमाना वर्तते। टर्की देशे सम्प्रत्येव दुरापन्नस्य भूकम्पनस्य पश्चात् सहायता पुनस्थापनयोः कृते नेपाल सर्वकारेण चिकित्सक दलम् अत्यावश्यक सामग्र्यश्च प्रेषयिष्यन्ते। प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य उपविष्टेन राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन राष्ट्रिय परिषदः दशमोपवेशेन चिकित्सक दलम् टर्की देशस्य वातावरणानुकूलाः खाद्य प्रवृत्ति सामग्रीश्च प्रेषयितुम् निर्णीतम् वर्तते। उपवेशे प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः अवदत् टर्की देशः नेपालस्य सन्मित्रमस्तीति हेतोः नेपालस्य पक्षतः सम्भवः सहयोगः विधातव्यः। प्रधानमन्त्री प्रचण्डः नेपालाय कठिनावस्थायं टर्कीदेशीय सर्वकारेण सहयोगो विहित इति स्मरन् टर्कीदेशस्य दुःखावस्थायं शीघ्रातिशीघ्रं चिकित्सक दलं प्राविधिक सामग्रीश्च सम्प्रेष्य सहयोगो विधीयते इत्यभासत। ह्य एव परराष्ट्रमन्त्री डा विमला राई पौड्यालः टर्कीदेशस्य विदेशमन्त्रिणा मेवलुट चावो स्वग्लो इत्यनेन सह दूरभाष सम्पर्कम संस्थाप्य तत्र दुरापन्नेन शक्तिशालिना भूकम्पेन दिवंगतान जनान प्रति समवेदनाम् प्राकटयत। दूरभाष वार्तायां मन्त्री पौड्यालः नेपालस्य पक्षत यथाशक्ति सहयोगं विधातुं प्रतिबद्धताम् अज्ञापयत। वार्तायां परराष्ट्रमन्त्री पौड्यालः टर्की देशे विद्यमानः नेपालिनः सुरक्षित क्षेत्रेषु स्थानान्तरयितुम् अन्वरुणत। राष्ट्रपतेः विद्यादेवी भण्डारी भोजपुरे बालगुरोः षडानन्द अधिकारिणः क्रान्तियोद्ध्रयाः योगमायायाश्च प्रतिमाम् अनावृणोत्। राष्ट्रपतेः भण्डारी ह्यः षडानन्दस्य जन्मभूमौ स्थापिताम् एतस्य प्रतिमाम् योगमायायाः तपोभूमौ साल्पा सिलिच्छो पालिकायाः प्रथमवडाक्षेत्रस्य गौडेनी स्थाने स्थापिताम् योगमायायाः प्रतिमाम् च अनावृणितवती। राष्ट्रपतिः भण्डारी भोजपुर जनपदस्य दिङ्लास्थानस्य सीताराम मन्दिरस्य दर्शनेन सह षडानन्द वेद विद्याश्रमम् कैलाश डाँडास्थलम् षडानन्द माध्यमिक विद्यालयम् अरूण माध्यमिक विद्यालयञ्च अवालोकयत। भोजपुरस्य साल्पा सिलिच्छो पालिकायाः प्रथमवडा क्षेत्रस्य गौडेनी स्थाने आयोजितम् योगमायायाः प्रतिमायाः अनावरण कार्यक्रमम् सम्बोधयन्ती राष्ट्रपतिः विद्यादेवी भण्डारी अगदत् तात्कालिक शासकानाम् विरुद्धे क्रान्तियोद्ध्रयाः योगमाया न्यौपाने विधायाः नेतृत्वे अरूण नद्याम् विहित जलसमाधिः आविश्वम् नवीनः साहसिकश्च विद्रोहो वर्तते। राष्ट्रपतिः भण्डारी एवं विदायः पुण्यभूमेः धार्मिकस्थलस्य पर्यटकीय क्षेत्रस्य रूपेण विकसनम् आवश्यकम् अस्तीति प्रत्यपादयत्। राष्ट्रपतिः भण्डारी सतीप्रथायाः विरुद्धे योगमायया अतुलनीयम् योगदानम् प्रापितमस्तीत्यतः योगमायया सैव षडानन्देन च प्रापित योगदानस्य अस्य क्षेत्रस्य विकासे ध्यानम् देयमिति बलम् प्रदत्तवती। प्रमुख निर्वाचन आयुक्तः दिनेश कुमार थपलिया संवैधानिक आयोगानां कार्याणां पृथक प्रकृत्यै दक्ष जनशक्तेः निरन्तरम् उपलब्धतायै च पृथक कर्मचारी सेवा समूहस्य आवश्यकता स्थिति धारणां व्यनक्ति। गत मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पन्ने प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचने आयोगस्य सचिवालये स्थित्वा कार्यं विहितेभ्यः कर्मचारिभ्यः सधन्यवादम् प्रमाणपत्र वितरणाय ह्यः आयोगे आयोजिते कार्यक्रमे प्रमुखायुक्तः थपलिया निर्वाचनस्य समाप्तेः पश्चात् आयोगस्य कर्मचारिषु विचलनस्य स्थानान्तरणस्य आकांक्षायाश्च प्रवृत्तेः अन्ताय अतिरिक्त सेवा समूहस्य आवश्यकतायां बलम् प्रादत्। सर्वोच्च न्यायालयेन नेपाली कांग्रेस दलाय प्रमुख प्रतिपक्षी दलस्य मान्यतायाः प्रदानस्य कारणं प्रस्तोतुम् आदिष्टमस्ति। न्यायाधीशस्य सुषमालता माथेमा विधायाः एकल न्यायपीठेन पञ्जीकारितेऽस्मिन् आदेशाभियाचन निवेदने ह्यः श्रवणं विदधानेन संघीय संसद सचिवालयाय नेपाली कांग्रेस दलस्य सभापतये शेरबहादुर देउवा इत्यस्मै विपक्षी दलस्य नेतुः मान्यतायाः प्रदानस्य कारणं प्रस्तोतुम् आदिष्टमस्ति। एवमेव सभामुखाय देवराज घिमिरे इत्यस्मै नेपाली कांग्रेस संसदीय दलस्य नेत्रे शेरबहादुर देउवा इत्यस्मै संवैधानिक परिषदे च लिखितम् उत्तरं प्रस्तोतुम् आदिष्टमस्ति। प्रधानमन्त्रिणे पुष्पकमल दाहाल प्रचण्डाय प्रदत्त विश्वास मताय दलाय प्रमुख प्रतिपक्षी दलम् मन्तुम् न शक्यते इति तर्कयता अधिवक्त्रा विमल प्रसाद पोखरेलेन सर्वोच्च न्यायालये आदेशाभियाचन निवेदनम् पञ्जीकारितम् आसीत्। उपप्रधान भौतिक पूर्वाधार यातायात मन्त्री नारायण काजी श्रेष्ठ भासते वर्तमान सर्वकारः राष्ट्रिय सहमतेः पक्षे वर्तते। सर्लाई जनपदस्य बागमती स्थाने ह्यः आयोजिते कार्यक्रमे उपप्रधानमन्त्री श्रेष्ठ राष्ट्रिय सहमत्यै अनुकूलं वातावरणं सृष्टमस्तीति अवोचत। उपप्रधानमन्त्री श्रेष्ठ सत्तापक्ष प्रतिपक्षश्च स्वस्व स्थाने स्थितौ सन्तावपि सर्वाणि राजनीतिक दलानि राष्ट्रियैकतायाः शान्ति प्रक्रियायाश्च कार्यस्य पूरणस्य पक्षे सन्तीति अवोचत। वर्तमान सर्वकारः नेपाली जनतया अनुभवनत्वेन सामाजिक न्याय सहितायाः समृद्धेः अधिगमनस्य पक्षे स्थिति भाषमाणः उपप्रधानमन्त्री श्रेष्ठ नेपाली जनतायै शिक्षा स्वास्थ्य वृत्तिपार्जनैः सहितां समृद्धिं प्रदातुं विलम्बनम् न कर्तव्यमिति प्रत्यपादयत्। नेपाल कम्युनिष्ट पार्टीति दलस्य महासचिव नेत्र विक्रमचन्द विप्लव कथयति नेपालस्य आर्थिक क्षेत्रम् संकटे प्राप्तम् जनता मर्गे पीडिता विशेषो दुःखदो वर्तते इति समाचारः।